इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। प्रथमं तावत् मुख्याः वार्ताः। लोकसभा निर्वाचनस्य सप्तमस्य अन्तिम चरणस्य मतदानस्य समापनेन सह द्विषष्टि मतदातृभिः स्वस्य मताधिकारस्य प्रयोगः कृतः। अरुणाचल प्रदेशे सिक्किमे च विधानसभा निर्वाचनस्य मतगणना अद्य। भाजपा दलस्य इंडिया दलस्य च नेतारः लोकसभा निर्वाचनेषु बहुमतस्य विश्वासं प्रकटयन्ति। अफगानिस्ताने नौका दुर्घटनायां न्यूनातिन्यूनं 20 जनानां मृत्योः आशंका। अपि च क्रीडायां भारतस्य डीपी मनुः ताइवान एथलेटिक्स ओपन स्पर्धायाः जेवलिन थ्रो इति क्रीडायां स्वर्ण पदकं प्राप्तवान्। इदानीं वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य सप्तमे अन्तिम चरणे च अद्यावधि 37.26% मतदातृभिः मतदानं कृतम्। एतत् मतदानं ह्यः एव सञ्जातम्। अस्मिन् चरणे सप्तसु राज्येषु एकस्मिन् केन्द्रशासित प्रदेशे समेत्य 57 संसदीय निर्वाचन क्षेत्रेषु मतदानं कृतम्। लोकसभा निर्वाचन 24.2000 तथा आंध्र प्रदेशस्य उड़ीसायाश्च राज्य विधानसभानां मतगणना तथा विधानसभा क्षेत्राणां उपनिर्वाचनानां मतगणना मंगलवासरे प्रातः 8 आरभ्य भविष्यति। सिक्किम अरुणाचल प्रदेशयोः विधानसभा निर्वाचनस्य मतगणना अद्य प्रातः 6 आरब्धः। भारतीय जनता पार्टी इति दलस्य अध्यक्षः जगत प्रकाश नड्डा विश्वासं प्रकटितवान् यत् लोकसभा निर्वाचने तेषां दलं 70+300 आसनानि प्राप्स्यन्ति। अपि च राष्ट्रिय जनतांत्रिक गठबन्धनं 400+ आसनेषु विजयं प्राप्स्यति। मंगलवासरे जायमानायाः लोकसभा निर्वाचनस्य मतगणनायाः प्राक् विपक्षस्य इंडिया गठबन्धनेन ह्यः नवदिल्ल्यां सभा कृता। ततः ते 95+200 लोकसभासनेषु जयम् अधिगमिष्यन्ति इति विश्वासं प्रकटितवन्तः। भारत निर्वाचन आयोगेन केन्द्र बलानि प्रदत्तानि येन राज्यैः केन्द्रीय पर्यवेक्षकैश्च प्रदत्त मूल्यांकन आधारेण निर्वाचनानन्तरं कापि हिंसा न स्यात्। प्रियाः श्रोतारः, संस्कृत जगता संबद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः रविवासरे अर्थात् अद्य मध्याह्ने 1:30 भविष्यति। भवन्तः सर्वे श्रोतुं शक्नुवन्ति। अफगानिस्तानस्य नांगरहार प्रान्ते एकस्य नावस्य जलमग्न कारणात् 20 जनाः मृताः। मोमांद दारा जनपदस्य फसावुल क्षेत्रे 25 जनान् नयन्ति आसीत् इयं नौका, 5 जनाः त्राताः। ताइवान एथलेटिक्स ओपन श्रृंखलायाः भारतस्य डीपी मनुना स्वर्णम्, नित्या च रामराजेन च रजत पदकं विजिते। अन्ते पुनरेकवारं मुख्याः वार्ताः। लोकसभा निर्वाचनस्य सप्तमस्य अन्तिम चरणस्य मतदानस्य समापनेन सह द्विषष्टि मतदातृभिः स्वस्य मताधिकारः प्रयोगः कृतः। अरुणाचल प्रदेशे सिक्किमे च विधानसभा निर्वाचनस्य मतगणना अद्य। भाजपा दलस्य इंडिया दलस्य च नेतारः लोकसभा निर्वाचनेषु बहुमतस्य विश्वासं प्रकटितवन्तः। इति वार्ताः।